अथ दीनबन्ध्वष्टकम् यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेद्य स दीनबन्धु चक्रं सहस्रकरचारुकरारविन्दे गुल्वीगदादरवरश्च विभाति यस्य पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो भवतु मेद्य स दीनबन्धु येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधू स्थगिता दुकूलै सम्मोचितो जलचरस्य मुखाद् गजेन्द्रो दृग्गोचरो भवतु मेद्य स दीनबन्धु यस्यार्द्रदृष्टिवशतस्तु सुरा समृद्धिं कोऽपि क्षणेन दनुजा विलयं व्रजन्ति भीताश्चरन्ति च यतोर्कयमानिलाद्याद् दृग्गोचरो भवतु मेद्य स दीनबन्धु गायन्ति साम कुशला यमजं मखेषु ध्यायन्ति वीरयतयो यतयो विविक्ते पश्यन्ति योगी पुरुषा पुरुषं शरीरे दृग्गोचरो भवतु मेद्य स दीनबन्धु आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकम्पननिमित्तगृहीतमूर्ति य सर्वगोपीकृतशेषशरीरशय्यो दृग्गोचरो भवतु मेद्य स दीनबन्धु यस्याङ्घ्रिपङ्कजमनीन्द्रमुनीन्द्रवृन्दैराराध्यते भवदवानलदाः शान्त्यै सर्वापराधमविचिन्त्य ममाखिलात्मा दृग्गोचरो भवतु मेद्य स दीनबन्धु यन्नाम कीर्तनपरश्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति दग्ध्वा ममाधमखिलं करुणे क्षणेन दृग्गोचरो भवतु मेद्य स दीनबन्धु दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितं य पठेत् प्रयतो नित्यं तस्य विष्णु प्रसीदति इति श्रीमत्परमहंसस्वामी ब्रह्मानन्दविरचितं दीनबन्ध्वष्टकं सम्पूर्णम्।